इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्याः विज्ञानभवन नामाख्ये सभागारे 24,000,000 राष्ट्रिय पञ्चायत पुरस्कारं प्रदास्यति। अस्मिन् वर्षे विभिन्नेषु वर्गेषु आहत्य 45 पुरस्कार विजेतृणां चयनं जातम्। यद्धि मूलस्तरे शासन सामुदायिक विकासयोः उपलब्धीनाम् एकां विस्तृतां श्रृंखलां प्रदर्शयति। समारोहावधौ पंचायती राजमंत्री पुरस्कार विजेत्री पंचायतानां अभिनवान्वेषि प्रभावशालीनां प्रथानां विषये एकस्याः पुस्तिकायाः अनावरणम् अपि करिष्यति। मन्त्रालयेन एकस्मिन् वक्तव्ये सूचितं यत् एतेषां पुरस्काराणां माध्यमेन अन्यान् पंचायतान् उत्तम पद्धतीनां स्वीकरणार्थं प्रेरणाप्रदानमिति लक्ष्यमपि वर्तते। प्रधानमन्त्री नरेन्द्र मोदी स्व आवासे अद्य महान तमिल कवेः स्वतन्त्रता संग्राम योद्धुः सुब्रह्मण्यम् भारती इत्येतस्य सम्पूर्ण रचनानां संग्रहस्य विमोचनं करिष्यति। अवधेयास्पदं वर्तते यत् सुब्रह्मण्यम् भारती इत्येतस्य लेखन रचनाः जनेषु देशभक्ति भावनाः प्रदीप्ताः कृतवत्यः। तस्य सम्पूर्ण कार्याणां 23 खण्डानां संग्रहः एषः सीनी विश्वनाथन द्वारा संकलितः सम्पादितश्च जातः, अपि च एलायंस पब्लिशर्स द्वारा प्रकाशितः अपि जातः। एतस्मिन् संग्रहे सुब्रह्मण्यम् भारत्याः लेखनस्य संस्करणानां स्पष्टीकरणानां विवरणानि समाविष्टानि सन्ति इति। रक्षामन्त्री राजनाथसिंहः ह्यः मॉस्कोनगरे रूसदेशीयेन राष्ट्रपतिना व्लादिमीर पुतिन इत्यमुना सह मन्त्रणां समाचरितवान्। समायोजिते उपवेशनावधौ श्रीसिंहः भारत रूस देशयोः मध्ये मैत्रीपूर्ण सम्बन्धं प्रकटयन् उक्तवान् यत् नवदिल्ली सर्वदा रूसदेशीयैः मित्रैः सह उपस्थिता अस्ति इति। रक्षामन्त्रालयेन विज्ञापितं यत् उभौ नेतारौ द्विपक्षीय रक्षासहयोगस्य विभिन्नेषु प्रसंगेषु चर्चां कृतवन्तौ। भारतर्तु विज्ञान विभागेन तमिलनाडु कराईकल पुदुचेरी तटीयांध्र प्रदेश यनम रायलसीमा क्षेत्रेषु अद्य महती वृष्टिः प्रकल्पिता। विभागानुसारी अद्य उपहिमालयीय पश्चिम बंगाल सिक्किम बिहार उत्तरप्रदेशेषु प्रातःकाले कुंझटिकायाः संभावना दरीदृश्यते। तत्रैव हिमाचल प्रदेश असम मेघालय नागालैंड मणिपुर त्रिपुरा राज्येषु अपि आगामि दिवसे तादृशी स्थितिः अवलोक्यते। राष्ट्रपति पदासीनया द्रौपदी मुर्मू इत्यनया मानवाधिकार दिवसावसरे समेषां सम्मानाधिकारयोः रक्षणक्षमं न्याययुक्तञ्च आंगिकीय वातावरणं भवेदिति सबलं प्रतिपादितम्। ह्यः नवदिल्ल्यां राष्ट्रिय मानवाधिकारायोगेन समायोजितं मानवाधिकार दिवस कार्यक्रमं सम्बोधयन्ती राष्ट्रपतिः उक्तवती यत् आन्तर्जालिकापराधाः जलवायु परिवर्तनं चेति मानवाधिकाराय नूतने संकटे जायमाने स्तः। तया भणितं यत् आंकिकीय युगमिदं परिवर्तनकरम् अस्ति, परम् अनेन आन्तर्जालिकापराधाः निजतायाः हननादयः दोषाः अपि प्रकटिताः वर्तन्ते। ध्यातव्यमस्ति यत् मानवाधिकार दिवसः प्रतिवर्षं दिसम्बर मासस्य 10 दिनांके परिपाल्यते। अस्य वर्षस्य शीर्षको विद्यते अस्माकम् अधिकाराः अस्माकं भविष्यं साम्प्रतमेव इति। राष्ट्रपतिना कदाचाराणां समनाय जागृतिम् अभिवर्धनाय मुख्यधारायाः वीरतानां जनानाम् अधिकार रक्षणाय च नित्यन्तर्वर्तीनां परिवर्तनानां सम्पादनाय राष्ट्रिय मानवाधिकार आयोगस्य प्रशंसां कृतवती। अवसरेऽस्मिन् राष्ट्रपतिः द्रौपदी मुर्मुः राष्ट्रिय मानवाधिकार आयोगस्य प्रकाशनत्रयाणामपि विमोचनं कृतवती, अपि च क्रिकेट प्रतिस्पर्धायां महिलानां क्रिकेट प्रतिस्पर्धायां तिसृणां प्रतिस्पर्धानां एकदिवसीय श्रृंखलायाः तृतीये अन्तिमे च द्वन्द्वे भारतं ऑस्ट्रेलिया दलं सम्मुखीकरिष्यति इति वार्ताः।